सर्वेभ्यो नमस्कारः। अद्य सिद्धान्तकौमुद्याः अजन्तपुल्लिङ्गप्रकरणे विंशः भागः, मार्च् मासस्य चतुर्थः दिनाङ्कः। मेड् फार् द प्रीवियस् येनाक्षरसमां नायमधिगम्य महेश्वरात्कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य प्रदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। ओके, सारी फॉर द लास्ट क्लास। द बी एस एन एल इंटरनेट वॉज डाउन इन आर लोकैलिटी ड्यू टू सम रिपेयर वर्क, सो आई कुडंट लॉग इन, एंड आई डिस्कवर्ड दैट ओनली सम हाफ एन आवर बिफोर द क्लास, सो आई कुडंट इन्फॉर्म अर्लियर ऑल्सो। कंटिन्यूइंग फ्रॉम द प्रीवियस क्लास, पतिशब्दः अधीतः। पतिस्समास एव इति सूत्रेण घिसंज्ञायाः नियमः क्रियते, अर्थात् शेषोघ्यसखि इत्यनेन घिसंज्ञाया विहिता सा पतिशब्दस्य समासे एव भवति। यदा पतिशब्दः समासस्य अवयवः तदैव तस्य घिसंज्ञा भवति, केवलस्य पतिशब्दस्य घिसंज्ञा नास्ति इति नियमार्थमिदं सूत्रम् इति उक्तम्। अत्र कश्चन प्रश्नः पृष्टः आसीत्, एवकारः अपेक्षितः वा? डु वि रियलि रिक्वैर् दट् एव? वाट् वुड् हेपन् इफ् यु जस्ट् सेड् पतिस्समासे? केवलं पतिस्समासे इत्युक्ते किं भवति? तदा ईदृशः नियमः सिद्ध्यति वा इति चेत् सिद्ध्यति, यतोहि पूर्वसूत्रेण किमुच्यते शेषोघ्यसखि अनदीसंज्ञौ ह्रस्वौ यौ विवर्णौ वर्णौ तदन्तं सखिवर्जं घिसंज्ञं स्यात् इति सूत्रार्थः। सो एनी वर्ड् विच् इस् एण्डिङ्ग् इन् ह्रस्वैकार आर् ह्रस्वौकार विच् डस् नाट् हेव् नदीसंज्ञा एण्ड् विच् इस् नाट् सखि विल् गेट् घिसंज्ञा बै दट् सूत्र। इवन् पतिशब्द कम्स् अण्डर् द पर्व्यू आफ् दट् सूत्र बिकास् इट् इस् इकारान्तः, ह्रस्वैकारान्तः, नदीसंज्ञा नास्ति अस्य, सखिशब्दोऽपि नास्ति इत्यतः पतिशब्दस्यापि पूर्वसूत्रेणैव घिसंज्ञा सिद्ध्यति। सो इन् फ्रम् द प्रीवियस् सूत्र, वेदर् इट् इस् केवलपतिशब्द आर् इन् अ समास, इट् विल् गेट् घिसंज्ञा। सो वै डु न्यू सूत्र टु से पतिस्समासे वेन् वि आर् आल्रेडि गेटिङ्ग् घिसंज्ञा फ्रम् द प्रीवियस् सूत्र? तदा उच्यते सिद्धे सति आरभ्यमाणो विधिः नियमाय भवति, दट् इस् वन् स्टाण्डर्ड् रूल् इन् व्याकरण। सिद्धे सति पूर्वसूत्रेण शास्त्रेण वा सिद्धे आरभ्यमाणः विधिः, पुनः किञ्चित् सूत्रम् आरभ्यते चेत् नियमार्थः भवति, तेन नियमः ग्राह्यते। सो इफ् संथिङ्ग् इस् आल्रेडि बीङ्ग् गिवन् बै अ प्रीवियस् सूत्र, इफ् पाणिनि टेल्स् अ न्यू सूत्र टु से द सेम् पायिण्ट्, देन् वाट् इस् द पायिण्ट् आफ् दट् सूत्र इफ् यस्, दट् वुड् बि टु इण्डिकेट् सम् सार्ट् आफ् अ नियम। Right? So that is a standard thing which we use everywhere. If something is already being given by an earlier sutra, and if a new sutra is being told for that purpose, what is the purpose of that sutra? If we ask, it is for niyama. Okay. So here, since patishabdasya kheshokhyasakhi ityanena ivanghi samyayam praptayam, punaha patissamase iti ukte kim nyayate kashtana niyamaha, patishabdasya samase eva bhavati इति नियमः ज्ञायते, पुनः पतिस्समास एव इति किमर्थं वक्तव्यम् इति प्रश्नः। तदा उच्यते एवकारः, देर् इस् इन् द बालमनोरम, सो ऐ थिङ्क् यु शुड् आल्सो, ऐ डोण्ट् नो वाट् बुक्स् यु आर् आल् केरिङ्ग्, बट् देर् इस् वन् स्टाण्डर्ड् एडिशन् आफ् द कौमुदी विच् हेस् विच् कम्स् इन् फोर् वाल्यूम्स् एण्ड् विच् हेस् टु कामेण्टरीस्, इट् इस् काल्ड् बालमनोरम एण्ड् द तत्त्वबोधिनी। It need not be this edition, any edition the Moola would be same, but Balamanorama is one of the easier commentaries for beginners to follow. So learning grammar is not just learning a sutra, it is to, I mean, not learning what the teacher teaches, it should be, once you have been through a few, say a couple of years of learning grammar, you should be able to look at the commentary and make out what the commentator is saying, because at least at this level, what I am saying would not be much more than what a commentator says. Maybe at higher levels it would be. But I refer to the commentary and explain what it is. So one of the aims of studying any shastra should be to get that level of competency where you can carry on with the help of good commentaries. So learning to read the commentary is also an art, which I think everybody should develop. Anyway, so this edition of this is by Motilal Banarsidas, the edition with the 4 volumes. But I think there is a Chowkamb edition also with Bala Manorama. So if you can get that edition, it's good. So if you look at that Patissamasa Eva, so any commentary to, I don't know how many of you are familiar with reading commentaries and such, so I'll just give an introduction, even though it might be this. So if you have this particular book, what is there in bold on the top is the Mula, Kaumudi. So next there is a section, there are 2 sections below it. So one is Bala Manorama commentary and the other is Tattva Bodhini. So the first section is Bala Manorama. Right. So in Bala Manorama, in the commentary also, you can see that there are some words which would be in bold. This is a general format which is used for any commentary. So whatever is in bold is actually his quoting, the commentator is quoting from Mula Grantha. Right. So for example, you can in this space, you can see that Patissamasa Eva is a quote, which means that particular phrase appears in the Mula. And whatever is given next in not bold, in normal font, is the commentator's take on that particular phrase. Okay. So that is what we call the pratika. Pratikam nama yat mule asti tadeva uchyate vyakhya karena itaha asya bhagasya iyam vyakhya iti tasya pratikam ityuchyate. So the pratika for there are several things, so you can look at it. So if you see, if you read the commentary, you'll see that everything becomes very clear. So, for example, just read a portion of this commentary. So, the paragraph starts with "Atha pati shabde vishesham darshayati." So, to say indicate that the Dikshita does not say "Atha pati shabdaha" anything. He just starts with "Pati samasa eva," right? So, the commentator clarifies saying "Pati shabde vishesham darshayati." Pati hi pati patayaha ityadi pancharupani na dattani. Dikshita does not give those because they are like Hari shabda. He is only starting to indicate what is the speciality or what is that which happens only for Patishabda. So, Atha Patishabde Vishesham Darshayati Patissamasa Eva Iti Pratikaha. So, that is taken from Mula. Sheshobhya Sakhi Ityataha Ghi Iti Anuvartate. As we saw, if you look at the previous slides, you will see that Ghi Tadaha Patishabda Ityadina. So, the Mula is Patishabdaha Samase Eva Ghisamyaha Syat Ityataha. So patya patye ghitva bhavat natva gunabhave yani rupam ghitva bhavat, since patishabda does not have ghisamya, natva gunabhave, natva is angonastriyam ityanena yadnatvam vidhiyate tasya gunasya gherniti iti vihitasya gunasya cha abhave. So since we do not have nabhava and guna, yani rupam, so we just do iko yanasi and we get the rupa as patya and patye. Patyuhu punaha yan samanam khyatyat iti uttvam. So the ukara, you have pati as, you get yan and you do patyas, tatah kim bhavati khyatyat parasya ityanena utve patyuhu. Okay. Patyau patyaviti ghitva bhavat achaghehe ityabhave, since achaghehe will not apply since this has ghisamya, aut iti ngehe autve. So what happens in that case, we get the sutra out will apply to get nyehe outvam, the nyi pratyaya is replaced by au, yani rupam, and after that we do yanadesha pati I pati au patyau. Right. So the next line is what I wanted to focus on. Arambha samarthya deva niyamarthatve siddhe. Arambha samarthyat, that is just by the virtue of beginning a new sutra when it was already achieved, whatever Panini wants, the desired result was already achieved by the previous sutra. Arambha samarthyat, because Panini is starting a new sutra, there should be some purpose behind it. So, arambha samarthyat eva niyamarthatve siddhe. So, it would be obvious that the new sutra is for niyama. So, when just patisamase would have told that this is a niyama sutra, why should Panini use that evakara? Kimartham evakara uchyate iti chet. Evakarastu patireva samase ghihi iti viparita niyama vyavrutyarthaha. You see that the niyama can be in two ways. So one niyama is what we are saying. Patihi, patishabdaha, samase eva ghisamyakaha bhavati. Iti niyamaha asmabhihi svikrataha. That is the niyama which we have taken. That patishabda will get ghisamya only in samasa. It is also possible to interpret the niyama as something else. Patishabda eva samase ghisamyakaha bhavati. Only patishabda will get ghisamya in samasa. Could be a niyama, possibly. Right? So only patishabda will get ghisamya in a samasa, which means other words, if harishabda has a samasa, it will not get ghisamya. So all ikaranta ukarantas, kevalyanam tesham ghisamya bhavati, patishabdasya to samase api bhavati, kevalasya patishabdasya samase bhavati, iti niyamaha bhavitumarhati. It could be that the niyama is the opposite. So patireva samase ghihi, ityapi niyamaha syat, iti viparita niyama vyavrityarthaha. Viparita niyama is an opposite niyama. Vyavritti is to prevent. So by saying patis samase eva, so you have that samase eva, he prevents the interpretation as patireva samase. Only pati can get ghisamya in samasa. So to prevent that kind of a wrong interpretation, Panini has used that evakara with samasa to say patihi samase eva ghisamyakaha bhavati. Right. So I'll read the line again. Arambha samarthya deva niyamarthatve siddhe evakarastu patireva samase ghihi iti viparita niyama vyavrutyarthaha tena suharina ityadi siddhyati. So by that forms like suharina, shobhanaha harihi, suharihi. So now it is harishabda is at the end of a samasa. Suharina tatrapi ghisamya asti angonastriyam iti nabhavaha krutaha. So even in samasa, for all other things, we need that ghisamya. So that is why to prevent that opposite niyama, Panini has included that evakara. Right? So it was just raised by a couple of people, so I thought we'll clarify with it. Coming back, I just want to know how many people have Bala Manorama. I've been just going through it. So please raise your hand so that, okay, the others don't. Right. Okay, Hema also has Sharagopanji. Fine, I think quite a number of people have. So if people who do not have it, for studying Kaumudi, it's a very helpful, at least for beginners. Bala Manorama does have a few errors, but for beginners, it's a very good book. So if you can get it, it would be nice. Even otherwise, it's fine, because I'm covering many, but yeah. So from now on, we'll see, since we've got, I did not want to introduce the commentary earlier, because it requires some pravesha into the Shastra to go through it. From now on, if wherever we find it possible, we can go through small bits of commentary so that you know how the commentary makes things very, very clear sometimes. Okay. Vasuji? Oh. Huh. No, because of the inherent capacity of that new sutra. I mean, if that sutra were not needed at all, I mean, if we could have done something using some other thing, this sutra would go waste. So that the sutra itself has the capacity. Every sutra has an inherent capacity to do something, to be useful for something. So that is samarthya, the usefulness of the sutra, because we start by assuming that every sutra is needed. There is nothing which is waste in Panini Shastra. So arambha samarthya means just by the strength of it being told, or arambha being, yeah. Samarthya is capacity. Yeah. Yes. Samarthanam is it's to support something or convince, but samarthya is samarthasya bhavaha samarthyam. Samartha is somebody who can get things done, who has the capacity. So tasya bhavaha samarthyam. So agresaramaha patisamasa eva ityanena ghisamyayaha niyamah kriyate. Oh, this is okay. Kati shabdaha. So in pati shabda we don't have any other specialities. Kati shabdaha nityam bahuvachanantaha. Right? So kevalam bahuvachana rupani bhavanti. Bahugana vatudati sankhya ityanena sankhya iti samnya asti. So we are introduced to many samnyas in that sutra, in that shabda. Right? So bahugana vatudati ityanena datyantaha kati shabdaha dati pratyayantaha tena sankhya iti samnya bhavati. Datija iti sutrena shat iti samya bhavati. Tataha shadbhyo luk iti sutrena shadbhyaha parayoho shat sangakebhyaha parayoho jas tatha shas pratyayoho luk. Luk nama pratyasya luk shlu lupaha pratyasya darshanam lopaha ityeva artha luk shabdasya. So jashyasoho luk bhavati luki krute pratyalakshanena guno bhavatu. Even after we delete the pratyaya, can we do guna depending on that pratyaya? Jasi cha ityanena, jasi pratyaya pare hrasvasya gunaha vihitaha, saha pratyaya luptepi kartum shakyateva, pratyaya lope pratyaya lakshanam. Even when a pratyaya is deleted, we can do karyas depending on the pratyaya. It's a general rule. So, pratyaya lakshanena, jasi pratyaya luptepi tadashritam karyam. Nama gunaha kartum shakyateva iti chet na shakyate kimartham na lumatangasya luk shlu lup ityetaihi shabdaihi yada pratyasya lopaha bhavati tada tadashritam angakaryam na bhavati tad pratyalakshanam na bhavati iti samanyana artha. So when it is deleted by the general lopa we can do pratyalakshana, but when it is deleted by luk shlu or lup there is no pratyalakshana for an angakarya. That phrase is also important. The sutrartha says lukshlu lup shabdaihi lumata shabdena lupte tadashritam angakaryam nasyat. Right. So so Ravi asks, the sutra shlau seems to be an apavada for nalumata angasya because we do dvittvam even after the pratyaya gets shlu. Is shlau an angakarya? No, it is 6-1-10, right? So that is why we cannot do only the angakarya. Any karya which is happening in the angadhikara will not happen by pratyalakshana. But we can do other karyas. For example, we need padasamya. Kati jas ityasti. If you say there is no pratyalakshana, generally, if there is no pratyalakshana, we cannot do say it is a subanta. It won't be a pada also. Right? So it's only the angakaryam na bhavati. Ityevartha. Na lumata angasya. Angasya yat karyam kriyate tanna bhavati. Anyani karyani pratyaluptepi bhavanti. Pratyalakshanam bhavati. Okay. Next. अस्मद् युष्मद् षट् सम्यकाः त्रिषु स्वरूपाः प्रसङ्गवशात् उच्यते. सो जस्ट् बिकास् वि आर् डीलिङ्ग् वित् अ षट् सम्यक् वर्ड् दीक्षितर् क्लारिफैस् अस्मद् युष्मद् षट् सम्यकाः त्रिषु स्वरूपाः. त्रिषु नाम त्रिषु लिङ्गेषु द वर्ड् अस्मद् युष्मद् एण्ड् विच् एवर् वर्ड्स् हाव् षट् सम्यक् एस् ऐ टोल्ड् श्नान्ता षट् शकारान्ता नकारान्ता च सम्यक् षट् सम्यक् स्यात्. सो आल् दोस् वर्ड्स् त्रिषु स्वरूपाः दे आर् द सेम् दट् इस् दे गेट् द सेम् फार्म् इन् आल् त्री लिङ्गास् दे दकारान्तः त्रिलिङ्गः अथवा त्रिषु लिङ्गेषु समानः अस्मत् शब्दः त्रिषु लिङ्गेषु समानः युष्मत् शब्दः. सो द कति इस् आल्सो दट् पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे समानं रूपम्. ततः त्रिशब्दः इकारान्तः पुल्लिङ्गः त्रिशब्दः पुनः नित्यं बहुवचनान्तः सिन्स् त्री इस् आल्वेस् बहुत्व इट् हेज़् एन् इन्हरेण्ट् बहुत्व सो दिस् इस् आल्सो आल्वेस् इन् प्लूरल् नित्यं बहुवचनान्तः. त्रिशब्दात् जस् प्रत्ययः किं भवति का प्रक्रिया वाट् इस् द फार्म् फस्ट् त्रिशब्दस्य पुल्लिङ्गे त्रिशब्दस्य किं रूपं प्रथमाणोक्तौ हेम त्रयः रेट् स्त्रीलिङ्गे तिस्रः नपुंसके त्रयः तिस्रः त्रीणि. सो दिस् इस् नाट् अ दिस् डस् नाट् बिलाङ्ग् टु दिस् सेट् अस्य षट् संज्ञा नास्ति अस्मद् युष्मद् नास्ति. सो दिस् वेरीस् इन् त्रीलिङ्गस्. सो त्रयः इति रूपं का प्रक्रिया हौ डु वि गेट् त्रयः फ्रम् त्री सत्यं किं भवति जसि च इत्यनेन ह्रस्वस्य गुणः स्यात् जसि परे इति गुणे कृते त्रे अस् इति भवति. तस्य एजोयवायावः इति अयादेशे त्रयस् ऋत्वं विसर्गः त्रयः विल् नाट् गेट् दिस् फार्म् बै यण् यण् वुड् गिव् त्रियः त्रि अ त्रिय बट् दिस् इस् गुण अण्ड् अयादेश सो वि हाव् त्रयः. शस् प्रत्यये परे किं भवति त्रि शस् का प्रक्रिया Somebody else? It is like Harishabda. There is no difference. Harishabdasya yatha tathaiva bhavati. Not only Harishabda, Ramashabdasya yatha tathaiva bhavati. शस्प्रत्यये विशेष एव नास्ति. रविचन्द्रन्जी अण्ड् रविजी टोल्ड् सो इट्स् प्रथमयोः पूर्वसवर्णः लैक् वि गेट् रामान् सेम् वे वि हेव् त्री शस् इति स्थिते प्रथमयोः पूर्वसवर्णः इति पूर्वसवर्णदीर्घे त्रीस् इति भवति. तस्य तस्मात् छसो नः पुंसि इत्यनेन नत्वे त्रीन् इति रूपं त्रयः त्रीन् त्रिभिः त्रिभिस् किमपि न भवति ऋत्वं विसर्गः त्रिभिः त्रिभ्यः त्रिभ्यः आम् प्रत्यये परे षष्ठी बहुवचने त्रि आम् इति स्थिते स्तुतः किं भवति हरिशब्दस्य ह्रस्वनद्यापो नुट् इत्यनेन नुडागमे त्रीणाम् इति भवेत् त्रि न आम् नामि इत्यनेन दीर्घे त्रीणाम् इति रूपं भवेत् किन्तु रूपं तथा नास्ति रूपं किं त्रिशब्दस्य षष्ठी बहुवचने सूजि त्रयाणां सत्यं सो त्रयाणाम् इति रूपं सो हौ डु वि गेट् त्रयाणां वि नीड् संथिङ्ग् एल्स् हियर् सो त्रेस्त्रयः इति अग्रिमं सूत्रं त्रेः त्रयः वेरि सिम्पल् अण्ड् वेरि आब्वियस् पदद्वयं त्रेः इति षष्ठी त्रयः इति प्रथम आमि सर्वनाम्नः सुट् इति सूत्रात् आमि इति अनुवर्तते सो आमि परे त्रेः त्रिशब्दस्य त्रयादेशो भवति त्रिशब्दस्य त्रयादेशः स्याद् आमि इति सूत्रार्थः त्रि आम् इति स्थिते त्रय आम् इदानीं ह्रस्वनद्यापो नुट् अकारः ह्रस्वः ह्रस्वनद्यापो नुट् इति नुडागमे सोरि दिस् हस् टु बि नुडागम नाट् नुमागम ह्रस्वनद्यापो नुट् इति नुडागमे त्रय न आम् नामि इति दीर्घे त्रया ना अट्कुप्वाङ्गं व्यवायति इति णत्वे त्रयाणां रेफं निमित्तीकृत्य मध्ये यकारः अट् आकारोऽपि अट् अकारः अट् अड्व्यवाये णत्वं भवति त्रयाणां परमत्रयाणां कः विग्रहः परमाश्च ते त्रयश्च इति समासः सो अगेन् हि इस् गोयिङ्ग् आन् टु सी वाट् हेपन्स् इफ् त्रिशब्द इस् अ पार्ट् आफ् अ समास परमाश्च ते त्रयश्च इति कर्मधारयः सो कर्मधारये इस् इट् प्रधान और् गौण त्रिशब्दस्य प्राधान्यमस्ति वा गौणत्वमस्ति वा विल् त्रि बि प्रधान एस् वेन् एवर् एनी शब्द इस् पार्ट् आफ् ए कर्मधारय समास विल् इट् बि प्रधान और् गौण सो या इट् हेस् टु बि प्रधानम् इन् कर्मधारय नो 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 इन् कर्मधारय समास द वर्ड् इस् आल्वेस् प्रधान बिकास् ऐ मीन् बै नेचर् इट् इस् अ विशेषण विशेष्य द वर्ड् हेस् टु बि ए विशेष्य जनरलि सो इट् इस् आल्वेस् प्रधान बिकास् परमत्रयाणां परमाश्च ते त्रयश्च इत्युक्ते दोस् त्री परमत्रयः गच्छन्ति इत्युक्ते आल् द त्री गो सो प्राधान्यं सर्वदा क्रियायाः अन्वयः एव प्राधान्यम् इत्युच्यते सो कर्मधारय समासे सर्वदा आल्वेस् वित् नो एक्सेप्शन्स् द वर्ड् विल् बि प्रधान ओके सो कर्मधारय समासे त्रिशब्दस्य प्राधान्यमस्ति सो प्राधान्ये त्रयादेशः भवति परमत्रयाणां यत्र त्रिशब्दस्य प्राधान्यमस्ति तत्र त्रयादेशः भवति तेन परमत्रयाणाम् इति रूपं सिद्ध्यति गौणत्वे तु न इति केचित् सम् पीपल् से दट् गौणत्वे यदा त्रिशब्दः गौणः तदा न भवति इति केचन वदन्ति प्रियत्रीणां प्रियाः त्रयः येषां ते इति बहुव्रीहिः दे फार् हुम् त्री आर् डियर् प्रियाः त्रयः येषां ते इति विग्रहः तत्र बहुव्रीहिः बहुव्रीहौ सर्वदा गौणत्वमेव भवति गौणत्वे त्रयादेशः न भवति प्रियत्रि आम् इति स्थिते नुडागमे दीर्घे णत्वे प्रियत्रीणाम् इति रूपम् इति केचित् सो सम् देर् इस् व्यू विच् सेस् गौणत्वे त्रयादेशः न भवति वस्तुतस्तु प्रियत्रयाणां बट् आक्चुलि गौणत्वेपि त्रयादेशः भवति इति दीक्षितानां मतम् So why he says, there will be some reason. If you look at the commentary, I'm sure you'll get it. That Gaunatve pi trayadeshaha bhavati, Pradhanye pi trayadeshaha bhavati. Iti dikshita naam matam. I just look at it if it is... So there is an explanation which I think is a bit beyond your so actually so trishabdasya vishaye trishabdasya pradhanye api trayadesho bhavati gaunatve api trayadeshah bhavati iti siddhantah trishu tri su iti sthite adesha pratyayoh ityanena shatve trishu iti saptami bahuvachane rupam so trishabdah so all forms there are only bahuvachana forms that's the first point and all forms are like hari shabda except shashti bahuvachana which is there is a trayadesha so it becomes trayana okay. Any doubts next dvi so we saw tri dvi also happens to be ikaranta ikarantah pullingah dvi shabdah nityam vivachanantah so obviously the dvi because of its inherent duality it is always has only the dual number kim bhavati prathamah pratyah dvi au su au jas au pratyah tadadinamah a very important sutra which applies to a lot of familiar shabdas tadadinam ah iti chedah ashtana avibhaktau iti sutrat vibhaktau iti anuvartate tadadinam vibhaktau ah so when tadadi words belonging to the tadadi gana when they are followed by any vibhakti vibhaktihi sup tingau vibhakti samyostah so it has to be sub vibhakti because they are all pratipadikas so when they are followed by any vibhakti aha akarah adeshah bhavati tadadinam sthane akarah adeshah ke tadadayah okay esham akarah antadeshah syat sutra antadeshah iti nasti alontyasya akarah al alah antyasya adeshah syat aladeshah antyasya syat iti alontyasya iti paribhashaya so they'll get akara as an adesha for the last letter tadadi gane ke shabdah santi iti chet sarvadyantar ganah if you remember our what we studied in the sarvadi gana tadadi is a sub class of sarvadini sarvanamani of the sarvadi gana viparyantaname vaishtihi and there's a vartika which says that tadadi gana goes till dvi why this vartika is because the sarvadi gana starts with sarva vishwa the tyad is here so it starts tyad tad yad etad idam adas eka dvi yushmad asmad bhavatu kim starting with tyad there are 12 words dvadasha shabdah santi when you say tyadadayah panini is indicating only the beginning starting from tyad till where is it till the end yes the vartika kara says dviparyantanam eva only till dvi so the tyadadi gana starts with tyad and extends till dvi there are 8 shabdas all of them are very except tyad all are very popular or those which are very frequently used in sanskrit tad yad etad idam adas ekadvi right so ashtanam shabdanam tyadadi iti vyavaharah asti tyadadi gane ashtau shabdah santi right esham shabdanam antadeshah so the last letter is replaced by akara right so dvi au ityasti antimah varnah ikarah ikarasya sthane akarah adeshah dv a au tadadinamah iti sorry atogune is not needed here I don't know why I put it so it's just dva dv and a if you join it will become dva and au vruddhireci iti vruddhau dvau this step is wrong please forget it so dva au dvau vruddhireci iti vruddhau dvau iti rupa dvi bhyam so first two vibhaktis are au and out ubhayatra dvau iti rupam tataha bhyam 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 so dvivachana will always have only three forms one for the first two vibhaktis one for the next three and one for the last two so dvi bhyam atrapi tadadina maha iti akaradeshah bhavati so ato guna is not here dva bhyam danim kim bhavati what will happen when it is dva bhyam सूजी द्वाभ्यां कथं किं सूत्रं सुपिचा करेक्ट सो लाइक वी हैव रामाभ्यां वी गेट द्वाभ्यां अतोंगस्य सुपिपरे दीर्घहस्य सो एन ह्रस्वकारांतांग विल गेट दीर्घ व्हेन फॉलोड बाय अ सुप यादौ सुपिपरे सो सुपिचा इत्यनेन दीर्घे द्वाभ्यां द्वौ द्वौ द्वाभ्यां 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 द्वि ओस् अत्रापि अकारादेशः द्व ओस् नेक्स्ट् अत्र किं भवति किं भवति द्व ओस् इति स्थिते रामशब्दस्य किं भवति राम ओस् Anybody else? Okay. Vasuji? Gayoh katham, kim sutram? Right, so for an ayadesha, what do we need? Ekara. So how do we get an ekara? That is only for ikarantas. You have to go back to no. Out is for ni. We don't have the ni pratyaya here. You have to go back to Rama Shabda. No, that is also for harehe. Ngasi and ngas. We don't have it here. Okay. We are still in ikarantas, you have to go back to akarantas. Kena sutrena ekaraha iti prashnaha. Hema osicha. Right. So osi pare atongasya ekaraha syat. Have bahuvachane dhalyet and osicha. So osicha ityanena ekare dve os echoyavayavaha iti ayadeshe द्वयोस् ऋत्वं विसर्गः द्वयोः सो दट् इस् आल् दर् इस् नथिङ्ग् स्पेशल् इट्स् जस्ट् दट् द वर्ड् बिकम् अकारान्त सो आल् चदारीस् बिकम् दे बिहेव् लैक् अकारान्त सो वन्स् यु गेट् अकारान्त अथवा इट् गोस् लैक् रामशब्द दट् इस् आल् अस्य समासे किं भवति द्विशब्दस्य ओके बिफोर् दट् द्विपर्यन्तानाम् इति किं वार्तिककारेण उक्तं द्विपर्यन्तानामेव त्यदादिगणे ग्रहणम् अन्येषां नास्ति किमर्थम् इति चेत् भवान् भवन्तौ भवन्तः भवत् शब्दः एकद्वि युष्मदस्मद् भवतु किम् इत्यस्ति भवत् शब्दः द्विशब्दस्य अनन्तरम् अस्ति तस्य अत्वं न भवति अत्वं न भवति चेत् भवान् भवन्तौ भवन्तः तकारान्तः शब्दः यथा तथा भवति अयमपि सो फार् वर्ड्स् विच् अकर् आफ्टर् द्वि दट् इस् युष्मद् अस्मद् भवतु अण्ड् किं तदादीनामः विल् नाट् अप्लै सो भवतु इति सर्वनाम्नः त्वं न भवति संज्ञायाम् उपसर्जनत्वे च न अत्वं वेन् द वर्ड् इस् संज्ञा दट् इस् सम्बडी इस् काल्ड् द्वि ऐ मीन् I don't know why somebody would be called Dvi. But Eri Asti, Kasya Chana Nama Dvi Iti. Athava Upasarjanatve. Yada Dvishabdasya Gaunatvam Apradhanyam Bhavati. Tada Atvam. Tadadina Maha Iti Atvam Na Bhavati. Kuto Na Bhavati Sarvadhyantar Gana Karyatvat. If you go back to Sarvadhini Sarvanamani, we studied Vartika there. Samyaupasarjani Bhutasthu Na Sarvadayaha. यत्र संज्ञा भवति अथवा गौणत्वं भवति तत्र तादृशां शब्दानां सर्वादिगणे अन्तर्भावः नास्ति राइट सो she says dvivedi but that wouldn't be considered because it is not dvi shabda at all it has to be just dvi as a name And dvi be a pada because there is no sup. I mean, we do have sup pratyaya. We add. No. It is not. Dvi is always dual when it means two. But when it means a person, it need not always be dual. It can be eka vachana. If it is dual or if it is upasarjana, there will be all three vachanas always. So now, dvi is a pada because, I mean, dvi is not a pada by itself. It is a pratipadika. We have to add supratyayas to it. We do add pratyayas. Exactly, dvihi bhavati. So, tada kim bhavati? Dvir nama kaschit. Dvihi. So, when it is somebody's name, when dvi is somebody's name, the prathama bhakti would be dvihi. Dvihi, dvi, dvayaha. Yatha harihi, hari, harayaha. तदा द्विहि द्विद्वयः इति भवति सर्वादि अन्तर्गणकार्यत्वात् सो देर् वि डिस्कस्ड् दट् बोत् सर्वादीनि सर्वनामानि इति सिम्पल् सर्वनामसंज्ञा विल् नाट् बि देर् फार् सच् वर्ड्स् आल्सो एनी अन्तर्गणकार्य एनी कार्य विच् इस् मेण्ट् फार् अ सब् क्लास् आफ् सर्वादीस् दट् आल्सो विल् नाट् अप्लै इफ् अ वर्ड् इस् संज्ञा आर् इफ् इट् इस् उपसर्जन सो इट् इस् वै हि सेस् संज्ञायाम् उपसर्जनत्वे च न अत्वं सर्वाद्यन्तर्गणकार्यत्वात् तदा किं भवति द्विः द्विर्नाम कश्चित् द्विः द्वि द्वयः इति द्वयः इत्युक्ते द्वि इति नामकाः त्रयः पुरुषाः इत्यर्थः देन् द्वौ अतिक्रान्तः अतिद्विः सो दिस् इस् एन् एक्साम्पल् आफ् उपसर्जनत्व ही हू हेज् एक्सेल्ड् टु अदर्स् विल् बि काल्ड् अतिद्वि तस्यापि अतिद्विः अतिद्वि अतिद्वयः उपसर्जनत्वात् चेदाद्यत्वं न भवति हरिशब्दवद् रूपाणि प्राधान्ये तु परमद्वौ इत्यादि यत्र द्विशब्दस्य प्राधान्यमस्ति तत्र त्यदानीनामः इति भवति तत्र नित्यं द्विवचनान्तता अपि भवति परमद्वौ परमद्वाभ्यां परमद्वयोः परमौ च तौ द्वौ इत्यर्थः So, for tyadadinamaha, it will apply if the word is pradhana, it will not apply if it is gauna. While for trishabda, the trayadesha will apply for both pradhanya and gauna. Okay. Huh. So, the last, I haven't given the, this of, okay. So, the last word in ikarantas is audulomi. Very special shabda, I mean. Not widely in use. Uduni, Udu, Nama Nakshatram. Okay. So, yes, Audulomi is in Tadhitas. There is a Vishesha here. So, he said, Uduni Nakshatrani Iva Lomani Yasya Saha. It is not some, Yasya Saha Uduloma. It's actually a name of a sage. So, for names, we don't actually go into the Vyutpati. Because he need not have hairs like stars to be called Uduloma. Okay. It's just Vyutpatti is shown only from a grammar point of view. So it need not be Anvarthanama for everybody. Okay, so that's one thing to be keep in mind when we are talking about Samyas. Yajurveda, good. That is one thing for me because I have never come across this word. Aruna Sukta. Maybe somebody else can confirm if this is there. I do not know. So, yeah. So, Uduloma is the name of a sage. This is the only thing here. Shabda Pramanakaha Vayakaranaha. There is one thing they say that we care only for Shabdas and not for the meaning. This is not actually true, but that's just a gist. Which others say. And, So, Uduloman is a sage. Uduni valomani asya saha Uduloman iti nakarantam. Tasya apatyam. उडुलोम्नः अपत्यं पुमान् लैक् वि हेव् दशरथस्य अपत्यं पुमान् दाशरथिः उडुलोम्नः अपत्यं पुमान् औडुलोमिः इति भवति कथं प्रक्रिया इति चेत् उडुलोमन् इत्यस्मात् ई इति तद्धितप्रत्ययः अपत्यार्थे तद्धितप्रत्ययः बाह्वादिभ्यश्च इति सूत्रेण उडुलोमन् ई इति स्थिते आदिवृद्धिः दिस् इस् वन् स्टाण्डर्ड् रूल् इन् आल् तद्धितास् ऐ मीन् इन् मेनि तद्धितास् सो देर् इस् एन् आदिवृद्धि द बिगिनिङ्ग् लेटर् विल् गेट् वृद्धि वेन् द प्रत्यय फालोयिङ्ग् प्रत्यय इस् ञित् आर् णित् or kit, there is an adivrithi. That is why you see dasharatha becomes dasharathi and anything. Sumitra becomes saumitri, kunti becomes kaunteya, etc. Okay. So there are a couple of questions. Lomani ityukte kim? Lomaha, romaha, hair. Loma means hair. Apatyam ityukte, it's child. It's a gender neutral word. So putraha, putri, anything is called apatyam. The child of anything. So now, the U becomes Au. Why? You have Auduloman E. Next, Auduloma E. Nastadhite tinena Ti lopaha. Achontyadi Ti. So Ti is the last Ach and whatever follows. Here, An is called Ti. So Nastadhite iti sutrena Ti lopaha. You don't have to know this particular prakriya. I'm just showing. So Audulomi. इति तद्धितान्तत्वात् कृत्तद्धितसमासाश्च इति प्रातिपदिकत्वं नौ वी हेव् एन् इकारान्तप्रातिपदिक काल्ड् औडुलोमि हौ वुड् इट् गो औडुलोमिः औडुलोमि दिस् एक्चुलि थियरटिकलि हेस् टु बी लैक् हरिशब्द ओके सिन्स् द प्रातिपदिक इस् औडुलोमि द फार्म्स् आर् लैक् हरिशब्द देर् इस् नो स्पेशालिटि एक्चुलि देर् इस् नो स्पेशालिटि इन् द विभक्तिकार्य But this is a very, very special thing where the pratyaya, the tadhita pratyaya itself varies. It says, Lomno patyeshu bahushu akaro vaktavyaha. Lomnaha bahushu apatyeshu. It says, when we are doing the tadhita pratyaya itself, the tadhita pratyaya which we did was e, right? So, there is a e iti pratyaya. There is a vartika which says, bahushu apatyeshu, if the number of children is more, is in plural, There is no e suffix. The suffix itself changes. The suffix would be akara. A is a suffix. So, we'll go to the form later. He says, uduloman a. Instead of the e pratyaya, the pratyaya itself becomes a pratyaya. If you are meaning to say that there are many children. If you are saying udulomnaha apatyam, he has one child. The child would be called audulomi. But if you are referring to many children of that Uduloman, the suffix itself changes and it becomes akara. So when you have akara, there is no adivriddhi because this akara is not it or nit. But there is tilopa, nastadhita iti tilope, uduloma iti akarantam pratipadikam. So pratipadika itself becomes akaranta. If it is akaranta, the forms would be like Ramashabda, uduloma jas. प्रत्यये कृते उडुलोमास् प्रथमयोः पूर्वसवर्णः इति पूर्वसवर्णदीर्घे ऋत्वे विसर्गे उडुलोमाः इति रूपं सो दिस् इस् अ वेरि वियर्ड् प्रयोग ऐ मीन् ऐ एम् श्योर् द डिफ़रेन्स् इस् ओन्ली बिकास् आफ़् प्रयोग वेर् यु सी दट् ओन्ली इन् बहुवचन द फार्म्स् आर् लैक् रामशब्द बिकास् द प्रातिपदिक इट् सेल्फ़् इस् अकारान्त वि केनाट् एक्चुलि से दट् दिस् इस् इकारान्तः पुल्लिङ्गः उडुलोमि शब्दः Because the ikaranta pratipadika is only in ekavachana and dvivachana. In bahuvachana, the pratipadika itself becomes akaranta. So, yada ikarantam pratipadikam tada harishabdavad rupani, yada akarantam pratipadikam tada ramashabdavad rupani. Okay. Vasuji? Haan. Haan. It is there. It is achoiniti. It follows achoiniti. So there is it, nit or, yeah, it or nit. Only if the suffix is nit or nit, then only we have this. So even if it is kit, which is another sutra, I guess. Sadhiteshva chama dehe kiti cha. Right. So the adivriddhi will apply depending on the suffix. Since a does not have any nit or nit or kit, we do not have adivritti. So that is about audulomi. So ekavachane dvivachane ikarantah hari shabdavad rupani, bahuvachane akaranta rama shabdavad rupani. So that actually ends ikarantas. We are through with ikarantas. So, any questions? Okay. Is there a book which has English translation of Bala Manorama and Tattva Bodhini? I have not come across. No, Ravi, do you know any such? No. Vasu, the Shirish Vasuji is just a direct translation of the Ashtadhyayi. It gives a gist of Bala Manorama, I guess, but it's not a translation of Bala Manorama. Yeah, so and I think it's always better to go with the Mula. I mean, to translate a commentary is very. With practice, you'll get it. Bala Manorama becomes very easy once you're through quite the Siddhanta Kaumudi, sorry. Vasu, but it does not have a translation of Bala Manorama. Is the book by whom and which publication? Okay. Oh, that's great. I should find which publication. Do you know by any sense? Oh, yes, sure. Oh, yes, please. You can send it to everybody here, so it would be useful. Okay. So there are a few more questions. Hema? So good, thank you. So we'll see. If it's an online version, it's easier. So Ravi says the Bhaimi of it's of Laghu Siddhanta Kaumudi, right? So it is, I have not seen it, but I have seen excerpts from it. So it seems to be a good one, which gives excerpt or points from Bala Manorama. I would have taken from it and told. Okay, Hiralalji. Hiralalji. Okay, that's right. So I hope I'll be. Oh yeah, I have seen that book. It has people who are comfortable with Hindi, look at it. It's called, it's a Chaukamba publication by Gopal Datta Pandeya. I think that also is in 4 volumes, is it? I think I've seen it sometime. I'm not very comfortable with Hindi. I've not seen. I've seen the book, but I have not used it much. Okay, so James Valentine for Laghu Kaumudi. And this book, but I don't think it's very detailed. It gives sutra sutra artha example. Yeah. For beginners, fine, but it does not get into the Shastra. Yeah, and that book is bad. Okay. I have not... all these books I have just seen, not actually studied or... Okay. Anything else? ఏనాక్షరసమాయమీ మహేశ్వర కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః మునిత్రాయ నమస్కృత్య తదుక్తి పరిభావ్య వైయాకరణసిద్ధాంతకౌమురీయం విరచ్యతే.